अयम् हि ते अमर्य इन्दुरद्यो न पत्यते दक्षो विश्वायुर्वेधसे अयमस्मासु काव्यर्भुर्वज्रोदास्वते अयम् विभर्भ्योध्वकृशनम् मदमृभुर्न कृत्यम् मदम् गृढस्येना जगत्त्वा न आसुस्वासु वंसगः अवदीते दहि सुवाः यम् तु कर्णः परावतस्येन स्य पुत्र आभरत् सदचक्राङ्गो गोच्यो वर्तनिः यम् ते स्येन स्तारूपमृगम् पदाभरदरुणम् मानमुन्धसः एनावयोपितार्याय जीवस एनाजागारबन्धुता एवादरिन्द्र इन्दो न देवेषु जिद्धारया देवहित्यजाः क्रत्वावयोपितार्याय शुक्रतो क्रत्वाय भस्मदासुतः